श्रृण्वन्तु विश्वे अमृतस्य पुत्रा आये धामानि दिव्यानि अस्तु वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ता तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते अयनाय नान्यः पन्था विद्यते अयनाय नान्यः पन्था विद्यते अयनाय
Amen.